अथ नील सरस्वती स्तोत्रम् घोररूपे महारावे सर्वशत्रु भयंकरे भक्तेभ्यो वरदे देवी त्राहि माम शरणागतम् ओम सुरासुरार्चिते देवी सिद्धगंधर्व सेविते जाड्यपापहरे देवी त्राहि माम शरणागतम् जटाजूट समायुक्ते लोलजिह्वान्तकारिणी द्रुतबुद्धिकरे देवी त्राहि माम शरणागतम् सौम्य क्रोधधरे रूपे चंडरूपे नमोस्तुते सृष्टिरूपे नमस्तुभ्यं त्राहि माम शरणागतम् जडानां जडतां हन्ति भक्तानां भक्तवत्सला मूढतां हर मे देवी त्राहि माम शरणागतम् वं रों रों कामये देवी बलिहोम प्रिये नमः उग्रतारे नमो नित्यं त्राहि माम शरणागतम् बुद्धिं देहि यशो देहि कवित्वं देहि देहि मे मूढत्वं च हरे देवी त्राहि माम शरणागतम् इन्द्रादिविलसद्वन्द्व वन्दिते करुणामये तारे ताराधिनाथास्ये त्राहि माम शरणागतम् अष्टम्यां च चतुर्दश्यां नवम्यां यः पठेन्नरः षण्मासै सिद्धिमाप्नोति नात्र कार्या विचारणा मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम् विद्यार्थी लभते विद्यां तर्क व्याकरणादिकम् इदं स्तोत्रं पठेत्यस्तु सततं श्रद्धयान्वितः तस्य शत्रुः क्षयं याति महाप्रज्ञा प्रजायते पीडायां वापि संग्रामे जाड्यं दाने तथा भये य इदं पठति स्तोत्रं शुभं तस्य न संशयः इति प्रणम्य स्तुत्वा च योनिमुद्रां प्रदर्शयेत् इति नील सरस्वती स्तोत्रं समाप्तम्।